संगीता भगिनी, कैन यू रीड द नेक्स्ट टू लाइन्स? व्यास विरचिता,
व्यास विरचिता गणेश लिखिता महाभारते पुण्य कथा कौरव पांडव संगर मतिता नैव क्लिष्टा न च कठिना, नैव क्लिष्टा न च कठिना।
धन्यवाद भगिनी। रमेश महोदय जस्ट जॉइंड। रमेश महोदय, कैन यू रीड द नेक्स्ट टू लाइन्स?
कुरुक्षेत्र समरांगनीता विश्ववंदिता भगवद्गीता अमृतमधुरा कर्मदीपिका नैवा क्लिष्टा न च कठिना, नैवा क्लिष्टा न च कठिना।
अंजना भगिनी, कैन यू रीड द लास्ट टू लाइन्स?
कविकुलगुरु नवरसोन्मेषजा ऋतुरघुकुमार कविता विक्रम शाकुंतल मालविका नैव क्लिष्टा न च कठिना।
कृष्ण भगिनी, कैन यू रीड द फर्स्ट टू लाइन्स? कृष्ण भगिनी, म्यूट करो तो माइक। कृष्ण भगिनी, सुप्रिया भगिनी, डू यू वांट टू रीड द नेक्स्ट टू लाइन्स, फर्स्ट टू लाइन्स? न श्रूयते भगिनी, न श्रूयते। लुक्स लाइक देयर इज सम प्रॉब्लम विद हर माइक। अस्तु, अग्रे सरमः। पुनः स्मरणम्। सो वी विल सी व्हाट वी हैव डन सो फार। वी हैव बीन फ्यू लेसन्स वी हैड। वी डिड इन द वेरी फर्स्ट लेसन वी डिड सुभाषितम और प्रोवर्ब। इट्स कॉल्ड प्रोवर्ब्स इन संस्कृतम एज सुभाषितम। So we did arabdham uttam janaha na parityajanti. We could also read it as uttam janaha arabdham na parityajanti. What does that mean is once uttam janaha or the good people or the best people, we can say, whatever they start, they don't stop, they don't abandon it afterwards. So we did that in the very first class, and then we did the pariche. Is you all very familiar with now, mama nama Anuradha, and everybody can say mama nama Rameshaha, mama nama Sangeeta, mama nama Priya, mama nama Krishna, mama nama Nareshaha, mama nama Vimala. So we are all very familiar, and we are very familiar with asking each other bhavataha nama kim, how to ask each other the name. So if it's a pullinga, then it's bhavataha, otherwise bhavatyaha nama kim. So we did that in the last few lessons. Then we also found another way of asking that aham ka or aham kaha. Aham, like I, and bhavan, bhavan kaha, bhavati ka. So you could also say aham Anuradha, or aham Nareshaha, or you could also answer in a different way to say aham vaidyaha, or aham chaturaha. So you could use any of the professions or any of the qualities of yours, that aham vaidyaha, aham adhyapikaha, anything like that, that you would like to introduce yourself as yourself. Like here, aham sandhya, aham mahila, aham chatura, aham bhartiya, aham sakhi, aham Vaidya, or for a masculine person, we could say Aham Govindaha, Aham Purushaha, Aham Kriyashilaha, Aham Videshiyaha, Aham Mitram, Aham Pachikaha. So, what I would suggest in no more than 5 minutes, because there are we have only 7 people here. Yeah, so we have 7 only. So if we can just quickly say aham, we can use any quality you want to say, your name. And also you could say wherever you live as well. Aham, like I can say Aham Anuradha, Aham Mahila, Aham UK Deshe Vasami. Just 3 lines, if we can go say that, then we can continue afterwards. So starting, I will start from Vimla Bhagini. Vimla Bhagini.
Aham Vimala, Aham Mahila, Aham Bharata Deshe Vasami.
Next Bhagini. Naresh Mohode, can you say 3 lines?
Aham Naresh, Aham Bharatiya, Aham Seva Nibrit Mohode.
Aham? क्षम्यतां भवान् न श्रूयते. सेवानिवृत्तः. अहं नरेशः, अहं सेवानिवृत्तः. भवान् कुत्र वसति?
अहं भारत वसति.
अहं भारतदेशे वसामि.
ओके, अहं भारतदेशे वसामि.
अहं भारतदेशे वसामि. प्रिया भगिनी.
अहं प्रिया, अहं भारतदेशे वसामि.
भगिनी का?
Aham Mahila.
You could use any adjective, anything you like. Aham Aham Gayika, Aham Vidyarthi.
Aham Kriya Shila.
Aham Kriya Shila.
Kriya Shila.
Aham Kriya Shila. Okay, Astu Bhagini, and Dhanyavadaha. Sangeeta Bhagini. कृपया पङ्क्तित्रयं
संहिता मम मुम्बैनगरे वसति. मम
पाचामि.
अहं पाचिका.
पाचिका.
अहं पाचिका.
अहं मुम्बैनगरे वसामि. अहं पाचिका.
अहं पाचिका.
धन्यवाद भगिनी. रमेश महोदय.
अहं रमेशः, अहं बेङ्गलूरुनगरे वसामि. अहं प्रबन्धकः.
अहं प्रबन्धकः. सम्यक्, समीचीनम्. अञ्जना भगिनी. अञ्जना भगिनी.
हा, अहम् अञ्जना. अहम् अमेरिका देशे वसामि. अहं भारतीया.
समीचीनम्. कृष्ण भगिनी.
अहं कृष्णः, अहं पुरुषः, अहं भारतीय.
क्षम्यतां महोदय, अहं चिन्तितवती कृष्ण भगिनी अस्ति, किन्तु कृष्णमहोदय अस्ति. क्षम्यताम्. अस्तु, we've done that already, that aham chhatra, aham buddhimati, bhavati balika. When you are saying to other person, then you could use bhavan or bhavati. So we done saha, eshaha, kaha. We done that. We done tat, etat, kim for neuters. Then we did pronoun. Saha, esha, esha. Reminder. And break up the Asia word into different syllables and find out what the ending is. And we've realized that most of the pulling shabdaha end with aha, and nipunsakling shabdaha end with like pustakam. And then for feminine, it ends with A, capital R. So for feminine, it could also be ending in E. In fact, even Pullingaha can end in E or U or any of the swaras, but it's not a rule. Then we studied about the consonants and the swaras in very first lesson. And if there is any question, please you can stop me and ask if you did not do that with me. So it is divided into 25 consonants are there, starting from ka to na, also to ma. So the reason of knowing this, that this is a kanthayaha or talvayaha or murdha or murdhanya dantaha oshtayaha, reason for this is that for correct pronunciation, for anuswaras, most of the time there is a confusion between when we say ka kha ga kha na, ka cha cha ja cha na. So most people will, from they will end up saying just na, like this na, rather than na with Ganga or na with Gitanjali, and this na is like ghanta. And we also know that these are the hard consonants, but they have alp prana. It's very short, which means the short aspiration or non-aspirated consonants. Then aspirated are mahaprana, which means that they are a little bit hard as well. When you say it, you say in your own time, when you read, you will see that ka has a small, when you speak it, there is less effort, but when you say ka, it's a little bit harder. And same goes with, then ga goes soft, and ga goes again as mahaprana, which is harder. So when we, but in English language, we also observed that the mahapranas are not there as a, they don't exist on their own in English language. Like kha, we always have to use to combine, to make those letters. Like kha, cha, tha, tha, pha, or kha, jha, dha, dha, bha. So these letters don't exist directly in the English language. And we also found out that ri, these are the swaras in the end. So ri can be, when we make a long ri, it, sometimes it can change into ra, and where ra is also a consonant here. So when we are reading, we have to be we have to be aware of whether ra that we are reading is a consonant or it's with some sandhi rules it's it was originally ri as a swara. Then in the last class we studied some of the items or shabdaha for mukhya prakoshtha in the lounge, what are the things, and then we also studied about pakshala sambandhani vastuni. I'm assuming that you might have revised through some of the slides these things. If not, you can look into that. You can ask me if it's not done. So then we also studied about asti, asti nasti or astiva, am asti or na nasti. We can say
chalam asti va chalam nasti, asti va
am kardipah asti. So then we studied about kutra asti, kardipah kutra asti, kardipah atra asti. सर्वत्र एकत्र वी हैव डन दिस इन द पास्ट. Not clear, and you can unmute and say and ask a question. Let's see. Must be clear. Rajeshwari Bhagni. So we did atra, tatra, sarvatra, ekatra, anyatra, kutra. So from this picture we can start from Vimala Bhagini. You can ask a question.
Yes, go ahead.
Kaha kutra asti,
kutram tatra asti.
Use any of the words above, like atra, satra, sarvatra, ekatra, or anyatra, and make two sentences from this picture. Chitram drishtva vakya dvayam vadatu bhagini. Vimala bhagini.
Kakaha kutra asti.
Answer api, uttar api vidavati.
I only have to tell the answer also.
No, not sure. Yes,
I should only tell the answer also. No,
just to say both the sentences.
Kakaha kutra asti, kakaha tatra asti.
Kakaha kutra asti, kakaha tatra asti. Naresh Mahadev. वाक्य द्वयं वदतु. वक्तुं शक्यते वा? किं किं वस्तूनि अत्र द्रष्टुं शक्यते भवान्?
not audible.
Vrikshah.
Vrikshah asti, shakatah asti.
वृक्षः तत्र अस्ति
श्रूयते
वृक्षः
अत्र अस्ति रमेश महोदय
शकटः कुत्र अस्ति शकटः तत्र अस्ति
समीचीनम् अञ्जना भगिनी
हा वृक्षः कुत्र अस्ति वृक्षः अत्र अस्ति
वृक्षः अत्र अस्ति कोऽपि अन्यवस्तु स्वीकृत्य वदतु कृष्णभगिनी
पर्वतः कुत्र अस्ति पर्वतः तत्र अस्ति
क्षम्यतां महोदय पुनः वदतु महोदय
पर्वतः कुत्र अस्ति पर्वतः तत्र अस्ति
समीचीनं राजेश्वरी भगिनी वक्तुं शक्यते वा भगिनी
क्षेत्रः कुत्र अस्ति क्षेत्रः तत्र अस्ति हलो
समीचीनं वायुः कुत्र अस्ति
वायुः सर्वत्र अस्ति
समीचीनं प्रकाशः कुत्र अस्ति
आकाशः तत्र अस्ति एकत्र सन्ति
न सा युवती
समीचीनम्
एषा बालिका
एषा बालिका एषा युवती सो एषा वृद्धा न एषा बालिका तर्हि वृद्धा कुत्र अस्ति
वृद्धा अन्यत्र अस्ति
अन्यत्र अस्ति
अस्ति
So because we don't know where the Vritta is, that's why, okay, then where is Vritta? Vritta Anyatra. So you could use Anyatra and Tarhi in this word. Another word is Vastutaha. Vastutaha. Vastutaha is like when you are saying in reality, बालिका तत्र एव अस्ति एव टु एट् जस्ट् वहीं पे ही है इट् इस् ओन्ली देर् इत्युक्ते वस्तुतः वायु सर्वत्र अस्ति वस्तुतः देव सर्वत्र अस्ति धान्यमस्ति भगिनि नेक्स्ट् चित्रं दृष्ट्वा अत्र एकम् उत्तरं ददातु अजः कुत्र सन्ति
अजः एकत्र सन्ति
अजः
अत्र एकत्र सन्ति
राजेश्वरी भगिनी शुनकाः कुत्र सन्ति
शुनकाः तत्र सन्ति
यु कुड् आल्सो यूस् एकत्र एकत्र लैक् इन् ओल् टुगेदर् गदर्भः कुत्र सन्ति
गदर्भः एकत्र सन्ति
कृष्णमहोदय वानरः कुत्र अस्ति
वानरो वृक्के अस्ति
वानरः अस्ति तत्र अस्ति मार्जराः प्रिया भगिनी मार्जराः कुत्र अस्ति
मार्जराः अत्र अस्ति
मार्जराः अत्र अस्ति सङ्गीता भगिनी धेनुः धेनवः कुत्र सन्ति
धेनवः तत्र सन्ति
धेनवः तत्र सन्ति आकाशः रमेश महोदय आकाशः कुत्र अस्ति
आकाशः सर्वत्र अस्ति
आकाशः सर्वत्र अस्ति विमला भगिनी द्विचक्रिका कुत्र अस्ति अस्ति
द्विचक्रिका अन्यत्र अस्ति
सो वि वि आर् वेरि क्लियर् अबौट् अत्र तत्र सर्वत्र एकत्र अन्यत्र एण्ड् कुत्र सो यु केन् यूस् दट् इन् एव्री डे लैफ् So, these are just some vocabulary, Vrikshaha, Shila, Bhumihi, Vayuhu, Keshaha, Sasyam. Anatra, Chitram Vrishtava, Ekam Ekam, Parichayam Dadatu, Eshaha, Kaha. एषः कः
एषः चटकः
वृक्षः
चटकः
एषः कः इन् टर्न् वि केन् स्पीक् सङ्गीता भगिनी एषः कः
काकः
एषः काकः भगिनी एषः कः
कबूतरः
एषः कबूतरः कृष्णमहोदय एषः कः
एषः I don't know what to say, this parrot.
Yesha
Shuka. I don't know the Sanskrit of parrot.
Parrot is Shukaha.
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 एषः कोकिलः
एषः कः भानुमति भगिनि एषः कः
भगिनि
एषः
एषः कु कुक्कुटः एषः कुक्कुटः
समीचीनम् अन्तिमभगिनी एषः कः मेबि ऐ शुड् गिव् यू मि क्लू एषः कः
एषः कः श्येनः
एषः श्येनः एषः एषः उन्मुखः एषः पकः एषः घृतः एषः शयेनः समीचीनम् वयम् एकगीतं गायामः गातुं शक्यते वा सविधा गातुं शक्यते
जीवजीवचटकः कौ कौ
वदति
चटकः कौ कौ कपोतः
जिव जिव चिटकः कौ कौ काकः वदति कपोतः गुटरुगुम्
नेक्स्ट् प्रिया भगिनि
मिटु मिटु शुकः
शुकः
मिटु मिटु शुकः काहु कोकिलः वदति
कोकिलः वदति कुक्कुटः
कुक्कुचकुरतिशेन
उच्चैः वदतु
विहरति हरति श्वेत
वकः वर्गः कः किमपि न वदतः नौकीभूतौ पश्यतरे
सुन्दर सरसि सरसि हे तो हंस हंस कादम्ब औपि तत्तिरि भुत्तिरि
नाम राजा कलु कलु रम्यमयूरगतः एव
Anjana Bhagini, can you read?
Yeah. You want me to start first line?
No, last line again, please.
Last line again. Pakshi gana nam raja kah khalu ramya mayurah sah eva.
So what you have to do is I will send this Gitam on the you should listen to it in your spare time. It's very nice song. You will like it. And if you have little kids around your house, you can also teach them. So today we will do samasta kriya padane. So gacchati. Gacchati is to go or go away. So if I say bala gacchati. So what you can do is ekam vakyam rachyatu. Ekam sanya vastu svikrishya ekam kriya padani svikrishya ekam ekam vakyam rachyatu. Extract one noun and extract one verb from this table and make a sentence. Any thing that you can think of, like
Valaha Parana,
but don't always try to find something
रामः गच्छति
be creative, not Rama. Something like that. I will call before the class. Ragini?
रामः विद्यालयं गच्छति
रामः गच्छति लेकिन् इन् एव्रि डे लेङ्ग्वेज् डू यू आल्वेस् यूस् रामः
ओके ओके गोपालः विद्यालयं गच्छति
गोपालः विद्यालयं गच्छति मम भ्राता गच्छति पिता गच्छति माता गच्छति भगिनी गच्छति बालः गच्छति गदर्भः गच्छति गजः गच्छति कार्यानं गच्छति कार्यानं गच्छति
लोकयानं गच्छति लोकयानं गच्छति
ओके नेक्स्ट् इस् प्रिया भगिनी एकं वाक्यं रचयतु
अहं पुस्तकं पुस्तकं पठति
पुस्तकं पुस्तकं पठति कः पठति
अहम्
अहं पुस्तकं पठामि पुस्तकं क्रियावच पुस्तकं कार्यं न करोति कार्यं किं करोति कार्यं बालः पुस्तकं पठति किन्तु पुस्तकं न पठति
ओके
बालः करोति भगिनी पुनः वदतु न श्रूयते
बालकः पुस्तकं पठति पठामि
बालकः पुस्तकं पठति
पठति
अहं पठामि किन्तु बालकः पुस्तकं पठति
ओके
सङ्गीता भगिनी
अहं सम्भाषणं शृणोति
अहं न अहं तु अभिनयायां जस्ट् कोऽपि अन्य वस्तु
मम श्लोकं शृणोति नाट् करे
भगिनी न श्रूयते उच्चैः वदतु
मम श्लोकं शृणोति
मम श्लोकं शृणोति न शुद्धं वाक्यं नास्ति मम श्लोकं शृणोमि
श्लोकं शृणोति
सः श्लोकं
शृणोति
सः श्लोकं पठति
सः श्लोकं पठति सम्यक् अपि सः श्लोकं लिखति किन्तु मम श्लोकं पठति सम्यक् शुद्धं नास्ति रमेश महोदय वाक्यं रचयितुं शक्यते वा रमेश महोदय आर् यू एबल् टु
स्पीक्
बालकः
श्लोकं शृणोति
बालकः श्लोकं शृणोति नरेश महोदय
Yes, yes, Bhagini.
Huh? एकं संज्ञा वस्तु संज्ञापदं स्वीकृत्य क्रियापदानि स्वीकृत्य एकम् एकं वाक्यं रचयति. Nagesh Mote, are you able to say a sentence?
No. Sound is not clear.
What is not clear?
I am not able to listen properly. Lot of disturbance
there. Maybe the headphone is not clear. Headphone problem, maybe, I don't know.
If everybody mutes, that would be better. Then noise level will be low.
Everybody is mute anyway. Most of them are mute. So let's. Can you try to make the sentence, please? Screen. Are you able to see the screen?
Yes, I am able to see the screen.
Okay, Rajesh, Rajini, can you make a sentence? So that it will be clear to Nagesh Mote afterwards. Sure.
अहं वदामि
वा? वदतु.
फलं पतति. फलं पतति. फलं पतति.
फलं पतति.
फलं 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 पतति.
स्पष्टं नास्ति भगिनि.
फलं पतति.
फलं पतति.
फलं
पतति. समीचीनं समीचीनं. फलं पतति.
बालकः क्रीडति.
समीचीनं. बालकः क्रीडति.
महिला अञ्जना भगिनि.
अञ्जना भगिनि.
महिला तत्र पूजा करोति.
अञ्जना भगिनि.
हलो. महिला तत्र पूजा करोति.
पूजां करोति.
पूजां करोति. महिला तत्र पूजां करोति.
समीचीनं. भानुमति भगिनि.
आं भगिनि. बालकः बालकः कक्षेन पठति.
बालकः
कक्षेन
वृक्षात् पतति. वृक्षात् पतति. विल् कम् टु देट्. मेक् सिम्पल् सेण्टेन्स्. सरलं वाक्यमेव रचतु.
चित्रं पतति.
अस्तु. नरेश महोदय, आर् यु एबल् टु स्पीक् नौ? इस् इट् बेटर् वाय्स् नौ? सौण्ड् अस्तु. So can you make a sentence?
Balakah vrikshah pashyati.
Balakah vriksham pashyati.
बालकः वृक्षं पश्यति.
बालकः ओ सिंपल यू कैन मेक समथिंग लाइक बालकः पिबति. भारवाहकः नयति. अहं पृच्छामि. अहं पृच्छामि लेटर एक्चुअली अहं बाद में आएगा. विल डू दैट. अस्तु कृष्ण महोदय.
सौप जलं पिबति.
एकम् अन्य वाक्यं रचयतु.
बालको खादति.
बालकः खादति. हैव आई मिस्ड एनीबॉडी एल्स बिकॉज़ देयर आर 12 पीपल. आई कैन ओनली सी 7 नेम्स.
बालकः फलं खादति.
हां महोदय. रमेश महोदय धन्यवादः. बालकः फलं खादति. समीचीनं शुद्धं शुद्धं वाक्यम् अस्ति. इज देयर एनीबॉडी आई हैव मिस्ड आउट. हैव आई मिस्ड आउट एनीबॉडी. ओ कमला भगिनी अस्ति अपि. कमला भगिनी कमला भगिनी आर यू एबल टू से सेंटेंस. न श्रूयते भगिनी. अस्तु न श्रूयते. ओके so we can what the main exercise is here ki when we are saying the person who is actually doing the work, the karta we have to use balakah gachati, balakah pathati. We can't say pustakam pathati because pustakam is not a actual karta. So the actor, the one that is actually doing the work, we have to make sure that we are matching the kriya padam with that only. Prichati, balakah prichati, balakah pashyati. Or you could use the pronouns as well. You could say sa gachati, sa pathati, or saha gachati, saha pathati, anything like that. सः करोति. सः कार्यं करोति. सा कार्यं करोति. सा पचति. ददति इस् स्लैट्लि डिफ्रेण्ट्. सो वी कुड् स्टिल् से सः ददाति. बट् इट् कम्स् इन् टु द चतुर्थी विभक्ति एस् वेल् बिकास् इट्स् ददति टु गिव् समथिङ्ग् कम्स् अण्डर् द दानम्. So we will learn more about it. So we could say
mitram milati.
Yeah. So what we will do is we have a few more kriya padani. So same way we can use upavishati. Balakah upavishati. Balakah पुस्तकं स्थापयति. बालकः स्मरति. श्लोकं स्मरति. बालकः आगच्छति. पुस्तकम् अस्ति. यू कुड् यूस् दट् हियर्. पुस्तकम् अस्ति. अस्ति पुस्तकम् अस्ति. पुस्तकं नास्ति. इट् लैक्स् इस् इच्छति. बालकः चोक्लेहम् इच्छति. दुग्धम् इच्छति. अहं फलं बालकः फलं गृह्णाति. वी केन् यूस् एनिथिङ्ग्. आनयति. शक्नोति. रोदति. निन्दति. आवयति. सो वट् वी विल् डू नौ, वी विल् रीड् द स्टोरि एण्ड् keep a close eye on the kriya padani, how it is used. Let's do the story. Alasaha balakaha. So let me share the screen for that as well. Share screen for that. Are you able to see the screen or not?
No.
No. I will do it again.
No,
yeah, I know. I figured that one out. So now you are able to see the screen, right?
No, not so good.
So, can you see the screen now?
Yes.
Yeah. So, what we will do, we have seen the Kriya Padani. So, when we are reading this Katha, keep very careful eye on how the these are used, and if there is any question, please do ask. Yes. So we will start with Vimala Bhagini to read the first sentence.
Kachana balakaha asti.
Priya Bhagini.
Saha alasaha asti.
Ekam vakyam. Priya Bhagini.
सः उद्यानं गच्छति.
समीचीनं. कृष्ण रमेश महोदय.
तत्र एकं काकं पश्यति.
समीचीनं. कृष्णमहोदय.
सो व्यस्तम् आहोति.
सः काकं क्रीडार्थम् आवेति. राजेश्वरी भगिनी.
काकः वदति मम समयः नास्ति इति.
समीचीनं. भानुमति भगिनी. अनन्तरं सः एकं शुकं पश्यति. समीचीनम्. अञ्जना भगिनि.
बालकः शुकं क्रीडार्थम् आह्वयति.
आह्वयति. नरेश महोदय.
सः शुकः अपि सः शुकः अपि मम समयः नास्ति इति वदति.
सः शुकः. सः शुकः is like that shukah itti vadati. Kamla Bhagini, are you able to speak? Na shruyate Bhagini. Astu. Vimala Bhagini, can you read the next line? Kamala Bhagini, can you please contact me later on? If there is some technical issue, I can help you with that. So, Vimala Bhagini, can you read?
Sorry. Anantaram ekam pipilikam pashyati.
Samishnam. Priya Bhagini?
क्रीडार्थम्
आह्वयति च. समीचीनं. सङ्गीता भगिनि?
तदा पिपीलिका अपि समयः नास्ति इति वदति.
समीचीनम्. रमेश महोदय?
बालकः सर्वं
शृणोति. बालकः सर्वं शृणोति. कृष्णमहोदय?
लज्जा भवति.
तस्य लज्जा भवति. सो भानुमती भगिनी? सर्वे स्वस्वकार्ये निरताः इति जानाति. अञ्जना भगिनी?
सः विद्यालयं समयेन गच्छति.
समीचीनं. नरेश महोदय? समीचीनम्. सो वी सी नौ वी हव् सीन् अस्ति, गच्छति, पश्यति, आवयति, नास्ति, पश्यति, आवयति, वदति, वदति, शृणोति. सर्वे स्वकार्ये निरताः. निरताः इस् आल्सो क्रियापदं, बट् इट्स् यूस्ड् इन् अ डिफ्रेण्ट् फेशन्. इट्स् यूस्ड् लैक् एन् एब्जेक्टिव् टु सर्वे. Sarve nirataha. But we will come to that afterwards. Next is janati. Pathati. So, some of the things we have noticed in here. Kashchan. Whenever we use chan or chit. Kashchit. Kashchan. That adds some uncertainty to it. So now what we will do, if I will highlight a sentence, and what you have to do is answer that. Kaha asti. So the order we will go is always this: Vimla Bhagini, then Priya Bhagini, Sangita Bhagini, then Ramesh Mohdeh, Krishna Mohdeh, then Rajeshwari Bhagini, Bhanumati Bhagini, Anjana, and Naresh Bhagini. Naresh Mohde. And if Kamala Bhagini is able to speak. So we quickly we can answer. So remember your order. So Bhagini. Vimla Bhagini, starting from you. Kaha asti?
Kachina balakaha asti.
Saha? Kaha asti? Saha? Saha asti?
Saha alasaha asti.
सः अल सः अस्ति सः कुत्र गच्छति सः प्रतिदिनं कुत्र गच्छति
सः प्रतिदिनं विद्यालयं न गच्छति सः
प्रतिदिनं समयेन विद्यालयं न गच्छति सः एकदा सः कुत्र गच्छति रमेश महोदय
एकदा सः उद्यानं गच्छति
एकदा सः उद्यानं गच्छति सः कं पश्यति तत्र सः कं पश्यति
तत्र एकं काकं
पश्यति
राजेश्वरी नो कृष्णमहोदय कृष्णमहोदय
तत्र एकं काकं पश्यति
सः तत्र एकं काकं पश्यति सः राजेश्वरी भगिनी सः काकं किमर्थम् आह्वयति
सः काकं क्रीडार्थम् आह्वयति
समीचीनं भानुमती भगिनी काकः कः वदति
मम समीचीनं
प्रतिध्वनि अस्ति अनन्तरं सा कं पश्यति भानुमति भगिनि
सः एकं शुकं पश्यति
सः एकं शुकं पश्यति वि शुकः गीतम् एस् वेल् शुकं के वट् इस् शुकं शुक
पेरट् पेरट्
समीचीनं रञ्जना भगिनि अस्तु बालकः कम् आव्यति क्रीडार्थं बालकः क्रीडार्थं कम् आव्यति शीघ्रं शीघ्रं वदतु भगिनि
सः क्रीडा शुकं क्रीडार्थम् आह्वयति
अञ्जना भगिनि सः शुक किं वदति
बालकः
सः शुकः
अपि मम समयः नास्ति इति वदति
समीचीनं नरेश महोदय सः अनन्तरं कां पश्यति
सः एकां पिपीलिका पश्यति
पिपीलिकां
पश्यति
सः कां पश्यति सः एकां पिप्लिकां पश्यति अस्तु सः किमर्थम् आवयति विमला भगिनी
सः क्रीडार्थम् आह्वयति सः पिपीलिकां क्रीडार्थम् आह्वयति
समीचीनं भगिनि कमला भगिनी ऐ यु एबल् टु स्पीक् से यस् इफ् यु केन् अस्तु न श्रूयते तदा पिप्लिका किं वदति प्रिया भगिनी केन् यु
तदा पिप्लिका अपि समयः नास्ति इति वदति
समीचीनम्
I have one doubt. What is the meaning for ahvayati?
To call somebody.
Oh.
when you listen to Indian news, have you ever heard saying that uska ahvan kiya, uska ahvan karte hain, like even in puja sometimes they will say that deva ahvanam, so avyati.
Okay.
Sangeeta bhagini, next one. Balakaha kim bhavati?
Balakaha sarvam shnoti. Tasya lajja bhavati.
Tasya lajja bhavati.
Tasya lajja bhavati.
Question to Ramesh Mode. Sarve kaha, sarve kaha bhavan bhavati?
Sarve svasvakarya nirataha
bhavanti iti janati. Kim kaha janati? Krishna Mode, kaha janati?
Sarva svakarjin karoti iti janati.
Kaha janati? Kaha janati?
Samayana gacchati.
Balakaha janati iti sarve svakarya niritaha. Balakaha janati. Because iti, when we use iti, that is the finish of the sentence. Sarve svakarya niritaha iti. But who found out about it? Balakaha found out that everybody is busy with their own work. Yeah? Is it clear?
Yes.
Bhanumati Bhagini, Saha Kutra Gacchati. Saha Kena Gacchati?
Samena Gacchati.
Samichnam. Saha Samena Gacchati. Naresh Mohade, Saha Katham Pathati Anantam?
Saha Samyak Pathati Cha.
Saha Samyak Pathati Anantaram. So one sentence now. We have about 10 minutes before we finish. Now, you ask the question. Vimala Bhagini.
Kaha asti?
Kaha asti? Priya Bhagini, kaha asti? Bhagini
Saha alasaha asti.
Samichnam. Saha alasaha asti. Astu, Priya Bhagini, ekam prashnam prachatu.
Can't hear.
Priya Bhagini, nashed ho rahe the.
Saha.
Mahalaha kitakuvanti.
Kaha pashyati. Kaha pashyati.
Saha ekam kakam pashyati.
Kam pashyate. Kam pashyate.
Kakam pashyate. Sa kutra gacchati.
So, anywhere, ask a question anywhere now. I will not highlight the line. Sangeeta Bhagini, can you ask a question?
Sa ekada kutra gacchati.
Ramesh Mohade, uttaram dadatu.
सः उद्यानं गच्छति.
सः प्रश्नमपि पृच्छतु.
सः काकं किमर्थम् आह्वयति?
क्रियार्थम् आहवति.
समीचीनम्. एकं प्रश्नमपि पृच्छतु.
काको किं वदति?
काकः
किं वदति?
किं वदति?
किं वदति?
राजेश्वरी भगिनी.
अनन्तरं सः किं पश्यति?
प्रथमम् उत्तरं ददातु.
शुकं पश्यति.
न, काकः किं वदति? उत्तरं ददातु प्रथमं.
काकः किं वदति? काकः मम समय नास्ति इति
वदति.
अनन्तरं किं पश्यति? कं पश्यति?
कं पश्यति?
एकं शुकं पश्यति.
भानुमति भगिनी उत्तरं ददातु.
अनन्तरं सः एकं शुकं पश्यति.
प्रश्नं पृच्छतु.
बालकः किम् आह्वयति?
बालकः कम् आह्वयति?
कम् आह्वयति? बालकः क्रीडार्थम् आह्वयति.
No. किम् अर्थम् आवयति? देन् यु केन् से बालकः क्रीडार्थम् आवयति. बालकः क्रीडार्थम् आवयति. इफ् यु आर् सेयिङ्ग् बालकः कम् आवयति, देन् बालकः शुकम् आवयति. कम् आवयति? ओके. अञ्जना भगिनि.
कः शुक अस् कः शुक अस्ति?
कः शुक अस्ति? शुकः अलसः अस्ति.
Pardon me, what did you say? Kaha?
I said, Shukaha alasaha asti. Is Shuka. That what you wanted to ask?
Yeah.
Okay. So, now I guess you can understand how to ask the question. There is still few lines, but we will... we can continue with that few more questions. If anybody who hasn't spoken so far, is there anybody hasn't asked a question? I guess we've gone through everyone anyway. So now what we can do, we can say Piplika. What is Piplika? Everybody knows the main
ant.
So is there any question from this story? Anybody got any question? No. No, there's... So, what we can do now is we can go back to our slides and finish the rest of the lesson. Let's finish the lesson with ekatta mantra. Let me try this time to lead and follow and try to be loud if you can. Yam vedika. There's a lot of echo. Yam vedika mantra drishah purana.
Yam vedika mantra drishah purana.
Indram yamam matrishvanamahu.
Indram yamam matrishvanamahu.
Vedantino nirvachaneyamekam.
Vedantino nirvachaneyamekam.
Yam brahma shabdena vinirdishanti.
Yam brahma shabdena vinirdishanti.
Shivayamisham shivityavochan.
Shivayamisham shivityavochan.
Yam Vaishvana Vishnuriti Stuvanti.
Yam Vaishnava Vishnuriti Stuvanti.
Buddhastatha Niti Bodh Jena.
Buddhastatha Niti Bodh Jena.
Sat Shriya Kaleti Cha Sikh Santaha.
Sat Shriya Kaleti Cha Sikh Santaha.
Shasteti Kechit Katichit Kumaraha.
Shasteti Kechit Katichit Kumaraha.
Swami ti mate ti pite ti bhaktya.
Swami ti mate ti pite ti bhaktya.
Yam prarthayante jagatish taram.
Yam prarthayante jagadish taram.
Ek eva prabhu dvitiya.
Ek eva prabhu dvitiya.
Dhanyavada. I could not hear everybody's sound, voice. So I'm not sure if everybody was trying to sing or not.
I was actually reciting with muted condition. So that it is not out of sync.
It always goes out of sync. But we have to continue practicing. And one day we will be very good. So okay, sarve militva gayantu. Start now. Om sarve bhavantu sukhinah.
Sarve santu niramayah.
Sarve bhadrani pashyantu ma kashchid dukhbhag bhavet.
Om
shanti shanti shanti. अस्तु धन्यवादः सर्वेभ्यः.
भगिनी, केन् यू सेण्ड् अस् आल् द वर्ड्स् लिस्ट् स्लैड्स्?
या डेफिनेट्ली.